సర్వేభ్యో నమస్కార. అద్య సిద్ధాంతకౌముద్యా హలంతపుల్లింగ ప్రకరణ ద్వాత్రింశః పాఠః జనవరి మాసస్య దశమః దినాంకః. ఏనాక్షరసమాం నాయం అధిగమ్యమహేశ్వరాత్ కృత్స్నం వ్యాకరణం ప్రోక్తం తస్మై పాణినయే నమః. వాక్యకారం వరరుచిం భాష్యకారం పతంజలిం పాణినిం సూత్రకారం చ ప్రణతోస్మి మునిత్రయం. మునిత్రయం నమస్కృత్య తదుక్తీ పరిభావ్య స విద్యాకరణ సిద్ధాంత కౌముదీయం విరచ్యతే. సకారాంతేషు పుల్లింగేషు స్మః. సేదివస్ ఇతి శబ్ద అగ్రే అధీయతే. షడ్ల్ విశరణదత్యవసాదనేషు ఇతి ధాతు. షడ్ల్ ఇతి మూలధాతు. సద్ ఇది తస్య రూపం సంపద్యతే. ది సేమ్ ధాతు విచ్ వి ఫైండ్ ఇన్ ఉపనిషద్. సో షడ్ ధాతు లిట్లకారః. భాషాయాం సదవస శ్రువః ఇతి సూత్రేణ లిట్లకారస్య ఖ్వసు ఇతి ఆదేశః క్రియతే. సో ది లిట్ ది లకార ఇట్సెల్ఫ్ ఇస్ రిప్లేస్డ్ బై ఖ్వసు విచ్ టేక్స్ ద ఫామ్ ఆఫ్ వస్. సద్ వస్ ఇతి స్థితే. లిటి ధాతోర్ అనభ్యాసస్య సూత్రేణ జిత్వం క్రియతే ప్రకృతి భాగస్య. సద్ సద్ వస్ హలాదిశేష ఇత్యనేన అభ్యాసస్య హలహలోపే స సద్ వస్. అత ఏక హల్ మధ్యే అనాదేశాదేర్లిటి ఇది సూత్రం. సో ద సూత్ర స్టడీ దిస్ ఆల్ ఇన్ తిగంత ప్రక్రియ. అభ్యాస గెట్స్ డిలీటెడ్ అండ్ ద అ ఇస్ రిప్లేస్ బై ఏ. So, I have said, was. Sasveka saad ghasam iti sutrena idagama kriyate. Was iti bhagasya. There is it agama by this sutra. So, you have sedivas. Sedivas is a pratipadika, sakaranta, pullinga. Sedivas shabdhati supratyaha. Jirajam sarvanamasthane adhatohu. Vasu. Since kvasu is ugit, we do numagama. Ugiracham sutrena numagama ekate. Sedivan su, su. Santamahata sanyogasya iti nopadhayah dhikha. Sedivan su, su. Supratyasya halgyadina lopaha. Sakarasya. Prakriti bhageha sakaraha tasya sanyogantasya lopaha. Uttanena lope sedivan. Till here it's all like vidvan. You had vidvas where you had vasu and this is kasu. The form is the same. So you have numagama and dirgha. Sedivan, sedivamsav, sedivamsaha. Sedivamsam, sedivamsav. In sarvanamasthana there is no difference. When you come to shas, vidvan, vidvas shabde vaso samprasaranam ityanena samprasaranam uktam. Atrapi samprasaranam bhavati vaso samprasaranam. Since it is also vasu, the word vasu there includes both vasu pratyaya itself and also kvasu. So atrapi samprasaranam karaniyam. Antarangopi idagamah samprasarana vishaye napravartate akatavyuhaha iti paribhashaya. So if you remember the prakriya of the shabda, shabda nishpatti, sed vas ఇది స్థితే అస్వేకాదాద్ఘసాం ఇది సూత్రేణ వసు ప్రత్యయస్య ఇడాగమ కృత. వి బ్రాట్ ఇన్ అన్ ఇట్ ఇకార అస్ అన్ ఆగమ ఫార్ వస్ అండ్ దట్ ఇస్ హౌ వి గాట్ సేదివస్. బట్ హీ సేస్ అంతరంగ ఇడాగమ అంతరంగ. ఇట్ ఇస్ అంతరంగ బట్ బికాస్ ఇట్ డస్ నాట్ డిపెండ్ ఆన్ ఎనీ ప్రత్యయ. ప్రత్యయస్య అపేక్ష నాస్తి. ఇట్ డస్ నాట్ డిపెండ్ ఆన్ ఎనీ సూప్ ఐ మీన్ షస్ ఆర్ ఎనీ అదర్ ప్రత్యయం. So it is antaranga when compared to samprasarana. Samprasaranasya bhasamya apekshyate. Bhasamyartham shas pratyayah bhavet. So bahirbhuta nimittakatvam samprasaranasya vidyate. Idagamah tu antaranga. But still akritavyuhaha paniniyaha. Nimittam vinashonmukham drishva tatra yuktam karyam nakurvanti ityarthaha. Iti drishtam. So if there is a nimitta which we know will be destroyed in the future. Say vasu. Here vasu is the nimitta. For any idagama, अधुना तु तस्येड् वलादेः इति औत्सर्गिकं सूत्रं. वलादित्व इस् हीडेड् ओन्ली वेन् संथिङ्ग् स्टार्ट्स् वित् वल्. वल् इन्क्लूड्स् आल् व्यञ्जनस् एक्सेप्ट् यकार. यकारं विहाय अन्ये सर्वे हल् वर्णाः वल् प्रत्याहारेण दृश्यन्ते. सो ओन्ली वेन् अ पार्टिकल् स्टार्ट्स् वित् वल् इट् केन् हाव् इडागम. सो वस्त्रेकादाध्यसाम् इत्यत्रापि तथैव. वकारः यदि अस्ति तर्हि एव इडागमः भवितुम् अर्हति. सो वकार इस् द निमित्त फार् इडागम. नौ वेन् वि डू वसोसम्प्रसारणं षट् प्रत्यये परे यदा वसोसम्प्रसारणम् इत्यनेन सम्प्रसारणं क्रियते तदा वकारस्य स्थाने उकारः आदेशो भवति. तेन च इडागमस्य निमित्तं हन्यते. सो द निमित्त फार् इडागम इस् लास्ट्. बै दिस् परिभाषा अकतव्यूहाः पाणिनीयाः इति परिभाषया निमित्तं विनाशोन्मुखं दृष्ट्वा इफ् द निमित्त वुड् बि डिस्ट्राय्ड् यु विल् नाट् डू दट् कार्य. And therefore, when we know that we are adding a pratyaya which can be a nimitta for samprasarana, that is thinking ahead, when we know that shat pratyaya bhavati tatrayuktam samprasaranam cha bhavati iti yada jnayate tada kim bhavati iragamaha na kriyate. We do not do the iragama at all. There are two ways. I mean, we do iragama tataha nimitta paaye naimitikasya prakpaaya, we can send it away. Both of them are the same. It results in the same thing. There is no idagama. So, akritavyuhaha paaniniyaha iti paribhashaya, idagamaha na kriyate. So, the pratipadika itself becomes sedvas. Instead of sedivas as the pratipadika, we have sedvas as the pratipadika. Tasmat shaspratyas kriyate. Idani vasosamprasaranam. Vasamnyayaha sattvat vasosamprasaranam ityanena vakarasya samprasaranena. उकारः सम्प्रसारणाचार्य पूर्वरूपे सेद् उस् इत्यस्ति. आदेशप्रत्ययोः इति षत्वं सकारः प्रत्ययस्य प्रत्ययावयवः सकारः पूर्वत्र इण् वर्णः अस्ति अतः षत्वे सेदुषस् ऋत्वविसर्गयोः प्रत्ययोः सेदुषः सेदिवांसं सेदिवांसौ सेदुषः एवं सेदुषा सेदिवद्भ्यां सेदिवस्भ्याम् इति स्थिते वसुस्रंसु ध्वंसनडुहां दह इति दकारादेशे सेदिवद्भ्यां सेदिवद्भ्यः इति. सो वेरेवर् स्टार्टिङ्ग् फ्रम् शस् इफ् देर् इस् अन् अजादि प्रत्यय देर् इस् सम्प्रसारण. सो कीपिङ्ग् द सम्प्रसारण इन् मैण्ड् देर् इस् नो इडागम. सेदुषः सेदुष सेदुषे इत्यादि रूपाणि सेदुष सेदिवद्भ्याम् इत्यादि. अग्रे सकारान्तः पुल्लिङ्गः सुहिंस शब्दः सुष्ठु हिंसति सुष्ठुहिनस्ति इत्यर्थे हिसि धातुः सकारान्तः. यु हाव् नुमागम विच् हस् बीन् कन्वर्टेड् टु अनुस्वार. सुहिंस सु हल्ज्ञादिना सुलोपः शान्तमहतः संयोगस्य. द क्वश्चन् इस् विल् वी हाव् अ दीर्घ हियर् because this is actually originally a nakara. Num numagamah asti hisi dhatuhu numagamah. The na has been converted to anuswara by nashtapadantasya sami. So there is still nakara sakarayo sanyogah vidyate. So purvatra yaha ikarah tasya dirghah bhavativa. This is like in vidvas or vidvansu iti skate dirghe krate vidvansu iti upo. तथैव अत्रापि भवति वा इति प्रश्नः. विल् वि हाव् शान्तमहतसंयोगस्य अप्लैङ्ग् हियर्. तर्हि शान्तमहतसंयोगस्य इत्यत्र शान्तसंयोगोऽपि प्रातिपदिकस्यैव दृश्यते. सूत्रस्य कः अर्थः? शान्तसंयोगस्य महतः यः नकारः तस्य. सो इफ् दर् इस् नकार विच् हेस् अ संयोग एण्डिङ्ग् इन् सकार आर् द नकार आफ् महत् शब्द then the upadhavilya dirgha is what the sutra says. Now he says the santa sanyoga has to belong to a pratipadika. Kimartham santa sanyoga api pratipadikasya eva grihyate natu dhatoh mahat shabda sahajaryat. The one associated you have mahat. Mahat is a pratipadika and not a dhatu. So there are cases where we derive such rules. Sanniyoga, athava sahacharya niyamaha, it is the vyakarana. There are many cases where if we are not able to decide something, if there is ambiguity somewhere, we decide it through Sahacharya. Say for example, there is a bhraj dhatu. There are two bhraj dhatus. There is one bhraj dhipto and the other two bhraj dhipto. Which of these should we take is a question. So he says, rajisahacharyat bhrajireva drishyate. So because it is associated with raji, we decide which of the two bhraj dhatus we should take. Like the Sahacharya Niyama is seen not only in Vyakarana, it is also seen in the general parlance. So whenever we try to decide the meaning of a word, we decide by Sahacharya. So atrapi Sahacharya Niyama drishyate. Mahachabda Sahacharyat Pratipadikasya eva Santa Sanyoga drishyate. Wherever there is a Santa Sanyoga belonging to a Pratipadika and not a Dhatu. अत्र तु धातौ शान्तसंयोगः अस्ति हिंस इति नकारसकारयोः संयोगः इट इज ओरिजिनली बिलोंग्स टू द धातु सो इन दिस केस शान्तमहतसंयोगस्य विल नॉट अप्लाई देयरफॉर वी डू नॉट हैव द दीर्घ हियर सो हिंस इति स्थितः संयोगान्तस्य लोपः इत्यनेन नकारस्य लोपे अनुस्वारः निवर्तते यः सुहिन् इति रूपम् सुष्ठु हिनस्ति इति सुहिन् सुहिंसौ सुहिंसः सो अगादि प्रत्यये सति वैशिष्ट्यं नास्ति सुहिन् भ्याम् सुहिंसा सुहिन् भ्याम् सुहिन् भिः इत्यादि रूपाणि सुहिंसु सुहिंसु सुप्रत्यय सप्तमी बहुवचने व्हेन यू हैव सुप्रत्यय नश्च इति सूत्रेण वैकल्पिकः धुडागमः क्रियते नकारात् परस्य सस्य वा धुडागमे कृते सुहिंसु इति रूपं तदभावे सुहिंसु The next word he deals with is sarasu and dhvasu. Samsu, dhvamsu, avatsamsane is a dhatu. There are two dhatus. Samsu and dhvamsu. Both of them are ugit. And avatsamsana means to hang down. That's my narthe. Dhvamsu gata ucha. Dhvamsu dhatu hu gatyarthakaha afe asti. So for these dhatus you do quit pratyaya. Dhvamsu dhatu hu quit pratyaya hakriyate. Anititam halaupadhaya kinti ityanena anunasikasya lopah. नकारस्य लोपः सो ध्वंस इत्यत्र अनुस्वारः श्रूयते वस्तुतः नकारः इट् ओरिजिनली अ नकार नष्टापदान्तस्य झलि इत्यनेन अनुस्वारः कृतः सो द नकार गेट्स डिलीटेड बिकॉज ऑफ कित् ऑफ क्विप सो इट यू हैव ध्वस हु वेरप्रत्यस्य इत्यनेन वलोपे ध्वस इति सकारान्तं प्रातिपदिकम् गच्छति इत्यर्थे ध्वस इति प्रयोगः भवितुम् अर्हति अस्माद् इदानीं सुप्रत्ययः यदि क्रियते हल्न्यादिना सुलोपः वसु स्रंसु ध्वंस्वनडुहां दः सो यः स्रंसु एण्ड् ध्वंसु एतेषां पदान्ते सकारस्य स्थाने दकारः आदिश्यते ध्वद् इति रूपम् अवसाने इति वैकल्पिके तत्त्वे ध्वत् ध्वद् ध्वसौ ध्वसः Azad is as usual. Dhvadbhyam. So not only in su, but again as you come across any haladi pratyaya, you have padasamya. Vasusramsudhvam sunaduham daha. Ityanena dakara adeshe. Dhvadbhyam dhvadvihi. Ityali nirupani. Evam srat. Srat srad srasau srasaha. Srasam srasau srasaha. Srasa sradbhyam sradvihi. Ityali. The next word, sakarantah, pullingah, kums shabdah. So kums is an avanadika shabda. So there are different derivations actually. There are actually three different derivations I think of deriving kums. The one which Dikshita accepts is punati iti puman. He purifies. Ityarthe puns shabdah. Pati iti puman ityapi asti. He who protects is puman. So the one Dikshita has taken here is this. Punati ityarthe puni pavane iti dhatuku. Tasmat dumsun iti औणादिकः प्रत्ययः पुयो डुंसुन् इति सूत्रेण औणादिकः डुंसुन् प्रत्ययः क्रियते. सो इन् डुंसुन् वी हेव् उम्स् एस् द एक्चुअल् प्रत्यय. डकार इस् इत्. वेरेवर् वी हेव् डकार एस् इत् तेः इत्यनेन तिलोपः क्रियते. सो द उकार डिलीटेड् यु हेव् टु उम्स् पुंस् इति सकारान्तं प्रातिपदिकम् पुंसोऽसुन् इति सूत्रम्. पुंसः असुन् इति छेदः इतोपि सर्वनामस्थाने इत्यतः सर्वनामस्थाने इति अनुवर्तते. सर्वनामस्थाने विवक्षिते पुंसः असुन् स्यात्. सो वेनेवर् यु डिसैड् टु डू अ सर्वनामस्थानप्रत्यय आन् पुंस् यु हेव् असुन् अस् द आदेश. नित्वादन्तादेशः इट् इस् नीत् स्वनीच इत्यनेन अन्तादेशः. सकारस्य स्थाने अस् इत्यादेशः. असुम् इत्यत्र नकारः इत् उकारः उच्चारणार्थः इति अग्रे एव उच्यते. सो हेव् अस् अस् द आदेश. नौ इस् अ क्वेश्चन् द उकार हियर्. असुम् इत्यत्र उकारः यः श्रूयते असुमः उकारः उच्चारणार्थः इति उच्यते. सो वेनेवर् हि सेस् संथिङ्ग् इस् उच्चारणार्थ इट् मीन्स् इट् इस् देर् सिम्प्लि टु ईस् प्रोनौन्सियेशन् एण्ड् नाट् एस् एन् इत् संज्ञा. There are two possibilities. Asum ityatra nakaraha it halantyam nitasya prayojanam bhavati antadeshatva sampadanam. Ukara, it is not heard in the adesha. It is fine. But there are two ways in which an ukara can be taken out. You can say it has it. Upadeshaya jananasikaita ityanena itsamyam vidhaya tasya lopaha ityanena lopam kartum shakyate. Athava ucharanarthaha ityukte saha रूपे न श्रूयते इत्यर्थः. नौ शुड् वि गिव् इत् संज्ञा टु उकारान् डिलीटेड् आर् इस् इट् जस्ट् देर् फार् प्रनौन्सियेशन् इति प्रश्नः. वै द क्वश्चन् बिकास् इफ् यु से इट् इस् इत् उकारः इत्संज्ञकः इति यदि उच्यते तर्हि तस्य प्रयोजनमपि वक्तव्यं भवति. एनी इत्संज्ञा इत्संज्ञा एनीवेर् एनी प्रत्यय एनी धातु आर् एनी पार्टिकल् has to have a prayojana. Prayojane satyeva itsamya bhavati. If there is no prayojana, then we do not do the itsamya. There is no point in saying something is it and deleting it, unless it serves some purpose. If we have nakara and it, there is a purpose that it is serving for antadesha. So anywhere you go, if you have something krip, ityata kacharaha yadi itsamya kaha, tarhi prayojanam asti. Kitvata अनुनासिकलोपः भवितुम् अर्हति. इफ् पकार इस् इत् देर् इस् अ प्रयोजन. पित् इत्यनेन पित्वस्य प्रयोजनं भवति. एनीवेर् एनी पार्टिकल् इफ् देर् इस् इत् समय देर् शुड् बि अ प्रयोजन. सो हियर् हि सेस् देर् इस् नो प्रयोजन फार् उकार बीङ्ग् इत्सम्यकः. उकारस्य इत्संज्ञायां प्रयोजनं नास्ति, अत एव उच्चारणार्थम् इति उच्यते. द क्वश्चन् पुमान् पुमांसौ पुमांसः सर्वत्र नुमागमः इष्यते. We require num. Numagamaha bhavati udhidacham sarvanamasthane dhatoho. Ugitve sati numagamaha bhavati. Now, this ukara can be used for ugit. Since ukaraha itsamyakaha, it can be used for numagama. Iti ekaha paksha. So, can't we use ukara, the itsamya of ukara? The purpose is having numagama. Ityukte na iti uchyate. बहुपुंसि इत्यर्थ उगितश्च इति नीबद्धं कृतेन पुयो डुंसुन् इति प्रत्ययस्य उगित्वेनैव नुंसिद्धेः. प्रत्ययस्य उगित्वेन वे आलरेडि डिरैव्ड् पुंस् फ्रम् डुंसुन् प्रत्यय. इन् दट् प्रत्यय द उकार इस् इत्. डुंसुन् इति द्वितीयः यः उकारः सः इत्सम्यकः. तस्य बिकास् इट् इस् इत् आलरेडि दिस् पुंस् इट्सेल्फ् इस् उगित् उगित्वम् अस्ति तेनैव नुंसिद्ध्यति. So, since it is ugit, already ugit, tena eva ugitacham sarvanamasthane dhatoho iti num siddhyati, atra api utvam na karaniyam, iti uttaram. The answer is, since the pratyaya, unadi pratyaya itself is ugit, I mean,
यथा उकारादि उत्सम्य उकारादि ठाद उत्सम्य यू डोंट नीड अनदर उत्सम्य हियर. Now the question arises, should we say the ukara there is it and this is uchcharanartha, or can we take this itself as it and say dumsun pratyaya ukara uchcharanartha? Either way you need one ukara having itsamya for numagama. So instead of saying this asum ityatra ukara uchcharanartha, because this is directly a Paninian sutra. Okay. सूत्रे उकारः उच्चारणार्थः इति वचनस्य अपेक्षया होमियोडम्सन् इति औणादिक सूत्रे यः उकारः विच् इस् नाट् डैरेक्ट्लि गिवन् बै पाणिनि अकार्डिङ्ग् टु मेनि, सो तत्रैव उकारः उच्चारणार्थः इति भवतु, अत्र उकारः इत्सम्यकः इति उच्यताम् इति प्रश्नः. सो हि सेस् दट् विल् नाट् वर्क्. द उकार इन् दुंसन् प्रत्यय हेस् टु बि उगित् बिकास् इट् सर्व्स् नाट् जस्ट् वन् पर्पस् बट् टु पर्पसस्. One purpose is achieving numagama in this. Puman pumamsa pumamsaha sarvanamasthane pare numagama sampadanam ekam prayojanam. Aparantu bahupumsi ityatra ugitascha iti nivartum. Yaha bahavaha pumamsaha yasyam sa iti bahuvrihi samasaha bahupums ityasti. Tatra neep pratyaha apekshyate. Neep is a stri pratyaya. So that stri pratyaya is given by ugitascha. If the pratipadika happens to be ugit, tadani neep pratyaha bhavati. Now, if you need to have ugitascha neep in bahupumsi, the pratipadika itself, that is pums itself, has to be ugit. Tatra asunadeshasya prasaktihi nasti. Sarvanamasthane pare eva, athava vivakshite eva asunadesha. So, if you don't consider the ukara in dumsun pratyaya as it, we will not have neep in bahupumsi. Tadartham dumsun pratyaye yaha ukaraha saha it bhavedeva. The itsamya for ukara is required in dumsun itself for both reasons. I mean for neep. Ugitashchayati neevartham tu tatra itsamya apekshyate eva. Ekavaram, I mean itsamyayam kritayam tenaiva ugitacham saranamasthane adhatoho iti numagamaha api siddhyati. So, we say, dumsun pratyaye ukaraha itsamyakaha, tasya prayojanam eep siddhihi num siddhishcha. Atra pumsosum ityatra ukaraha uccharanarthaha. We don't need an extra itsamya here. The argument. Bahupumsi ityatra ugitascha iti neevartham krutena, punyo dumsun iti pratyayasya ugitvenaiva num siddhehe. So, anyway, we have pums. Sarvanamasthane vivakshite. So, intending to do supratyaya with the sarvanamasthana, humso asung ityanena sakarasya asung adesha. Asung ityate as ity adesha. As soon as you replace sakara with as, the anuswara there, anuswara, you should know, is never by itself. I mean, it is a conversion product. It is either converted from makara or nakara. नश्चापदान्तस्य झलि इत्यनेन नस्यमस्य च अपदान्तस्य अनुस्वारः इत्युच्यते. सो ओरिजिनलि देर् वास् अ मकार, बिकास् आफ् स् इट् हेड् बीन् कन्वर्टेड् टु अनुस्वार. इदानीं निमित्तापाये नैमित्तिकस्य प्रपायः इत्यनेन सकारे नष्टे सकारस्य स्थाने अस् इत्यादेशे कृते अनुस्वारः अपि निवर्तते. सो इन्स्टेड् आफ् अनुस्वार वि गेट् बेक् द मकार. सो वि हेव् उमस् इति रूपं सुप्रत्ययः. गिरचां सर्वनामस्थाने अधातोः इत्यनेन नुमागमः पुमन् सान्तमहतसंयोगस्य इत्यनेन दीर्घः, पुमांस् हल्ग्यादिना सुलोपः संयोगान्तस्य लोपः इत्यनेन सकारस्य लोपे पुमान् इति प्रथमैकवचने रूपम्. हे पुमन् सम्बोधने सान्तमहतसंयोगस्य इति दीर्घः न भवति. असम्बुद्धौ सर्वनामस्थाने परे एव दीर्घः. सो सम्बुद्धौ हे पुमन् इति भवति. अगेन् औ प्रत्यये द्विवचने असुनादेशः. सो पुमस् औ गिरचाम् इत्यनेन नुमागमे पुमन्स् औ सान्तमहतसंयोगस्य इति दीर्घः. पुमान् स् औ अष्टापदान्तस्य झलि इत्यनेन नकारस्य अनुस्वारे पुमांसौ पुमान् पुमांसौ पुमांसः लैक् विद्वान् विद्वांसौ विद्वांसः हियर् देर् इस् एन् एक्स्ट्रा स्टेप् वेर् यु डू एन् असुङादेश इनिशियल् पुमान् पुमांसौ पुमांसः पुमांसं पुमांसौ पुंसः पुंस अस् ऋत्वे विसर्गेस कृते पुंसः पुंसा पुंभ्यां पुंभिः पुंसभ्याम् इति स्थिते संयोगान्तस्य लोपः इत्यनेन सकारस्य लोपः सो वाट् एवर् नष्टापदान्तस्य झलि आर् विच् यु हव् डन् टु ब्रिङ्ग् इन् द अनुस्वार इस् असिद्ध सो अस् फार् अस् संयोगान्तस्य लोपः इस् कन्सर्न् दत् सूत्र निष्ठापदान्तस्य झलि इस् देर् इन् द थर्ड् पाद अष्टमाध्यायस्य तृतीयपादे विद्यते अतः संयोगान्तस्य लोपः इति सूत्रस्य दृष्ट्या अत्र मकारः एव अस्ति संयोगान्तस्य सस्य लोपः निमित्ते नष्टे अनुस्वारः अपि निवर्तते सो यः पुं भ्यां मोनुस्वारः हियर् सिन्स् दिस् हेस् पदसंज्ञा हान्तस्य पदस्य अनुस्वारः स्यात् इत्यनेन अनुस्वारः करणीयः अनुस्वारे कृते अनुस्वारस्य ऐ परसवर्णः सो यः पुं भ्यां सो दीस् स्टेप्स् वी जनरली टेण्ड् टु फर्गेट् बट् इट् विल् हेपन् पुंसा पुंभ्यां पुंभिः पुंसे कुम्भ्यां पुंभ्यः इत्यादि पुंसि सप्तम्येकवचने सप्तमी बहुवचने पुंसु यः पुंस सु संयोगान्तस्य लोपः पुंसु मोनुस्वारः इत्यनुस्वारः यै वर्णः नास्ति सो सिन्स् वी डोण्ट् हेव् ए यै वर्ण फालोयिङ्ग् देर् इस् नो परसवर्ण इट् इस् पुंसु इति रूपम् अग्रिमः सकारान्तः पुल्लिङ्गः उशनस् शब्दः ऋदुशनस् कुरुदंसो नेहसंस इति अनन् सूत्रे विच् स्टडीड् इन् ऋकारान्त पितृ इति कृते पितन् दातन् इति भवति तत्रापि सुप्रत्यये परे उशनस् सु ऋदुशनस् कुरुदंसो नेहसंस ऋत् उशनस् कुरुदंस् अनेहस् For these words, it is replaced by anang. So, anang again, nikma tantadeshaha. You have ushanan su. Sarvanamasthaneta asambuddho. Asambuddho sarvanamasthane pare namtasya upadhayaha. You directly have an akaranta here. So, namtasya upadhayaha dithasyat. Itse nena dirghe. Ushanan su. Halnyabhyo dirghatsu kisya prattam hal. सुप्रत्ययस्य लोपः शनान् लोपः प्रातिपदिकान्तस्य इत्यनेन मकारस्य लोपे शना इति रूपम् शना भार्गवः कविः इत्यमरः शना तस्य शुक्राचार्य भार्गवः कविः आल् दोस् आर् हिस् पर्यायपदम् प्रथमैकवचने शना इति रूपम् शनसौ शनसः शनस् औ शनस् अस् nothing special. The anangadesha is only in suprate. Asya sambuddhau va anang nalopashya va vaktavyaha. Ushanas shabdasya sambuddhau anang adesha vikalpena bhavati. Nalopaha api vikalpena bhavati. So the anang adesha itself is optional. Even when you do anang, after you do anang, Nalopaha vikalpena. The deletion of the nakara is also optional. He ushanan. He ushanas su ityasti. Tatra anangareshe krute. He ushanan su iti bhavati. Supratesya lopaha. Saranamasthaneta asambuddhau iti uktatma dirkaha na bhavati. So we have he ushanan as one form. After you do anang, there is an optional nalopa nalopaha vikalpena bhavati ushanam nalopah pratipadikantasya iti yaha nalopaha saha vikalpena bhavati so nalopa bhave he ushanan iti rupam nalope krute he ushana iti rupam now if anang itself is not there you have he ushanas su supratyah lupyate ushanas iti sthite rutva visargayoh krutayoh he ushanah iti rupam so you end up with three forms one with anang and nalopa which is he ushana, one with only anang and no nalopa with he ushanan. Anang api na bhavati, nalopa api na bhavati. Ityukte he ushanah. Ushanas bhyam.
Sasadrisho ruhu ityanena sakarasya ruttum.
Ushanar bhyam. Hashicha ityanena uttum. So hashipare rohu uttum syat.
So replace ru with u.
Ushana u bhyam.
ఆద్గుణః ఇత్యనేన గుణే కృతే ఉషణోభ్యాం ఉషణసా ఉషణోభ్యాం ఉషణోభిః ఉషణసే ఉషణోభ్యాం ఉషణోభ్యః ఇత్యాది రూపాణి.
అనేహస్ ఇస్ వెరీ సిమిలర్ రుదుషణస్ పురుదంసో అనేహసాం చ ఇత్యనేన అనేహస్ శబ్దస్యాపి అనంగాదేశః విధీయతే. నహంతి ఇతి అనేహ కిల్ ఇత్యర్థే అయం శబ్దః నిష్పన్నః.
సో ఉషణా ఉషణసౌ ఉషణసః ఇతి వత్ అనేహ అనేహసౌ అనేహసః.
హే అనేహః హే దేర్ ఇస్ ఓన్లీ వన్ ఫామ్ బికాస్ ద రుదుషణస్ పురుదంసౌ అనేహసాం చ అనంగ్ సేస్ అసంబుద్ధౌ సౌ పరే. ఇన్ కేస్ ఆఫ్ ఉషణస్ దేర్ ఇస్ ఎ వార్తిక విత్ సెడ్ సంబుద్ధావపి వికల్పేన అనంగాదేశః భవతి. అత్ర తు తథా నాస్తి ఏకమేవ రూపం హే అనేహః అనేహసా అనేహోభ్యాం అనేహోభిః ఇత్యాదీని రూపాణి.
Everything else is similar to Ushanas except Sambuddhi.
Next word, Sakaranta Pullingaha Vedhas Shabdaha. Vidhanyo Vedhacha iti unadi sutrena vipurvad dhai dhatoho asun. So dha dhatu itself gets asun as the pratyaya. Prakritehe Vedhadesha. The prakriti, that is dha, vi, dha is replaced by vedha. So in unadi form, so you cannot have exact prakriya. You have vedhas as the pratipadika.
Here you have to remember that as is the pratyaya and vedha is belongs to the dhatu.
Asuni ukaraha uccharanarthaha.
So asun pratyaya iti uktam. So is the ukara it or not? This is any question.
यदि उकार से इत्सम्या अस्ति तर्हि उदितचाम इत्यनेन नुमागमः भवति. अत्र तु उकारः उच्चारणार्थः.
सो इट इज जस्ट टू फैसिलिटेट प्रोनन्सिएशन. फैसिलिटेट फैसिलिटेट प्रोनन्सिएशन.
उदित्वा भावात् ननु. सो सिंस इट इज नॉट उदित देयर इज नो नुमागम.
वेधस् सुप्रत्ययः अत्र संतस्य च अधातोः.
अतु एंड असु. అధాతోః అత్వంతస్య అసంతస్య చ. అధాతోః అసంతస్య. సో హియర్ యాజ్ ఐ సెడ్ అసున్ బిలాంగ్స్ టు ఎ ప్రత్యయ ఉనాది ప్రత్యయ నాట్ టు ద ధాతు. దేర్ఫోర్ అధాతోః అసంతస్య ఉపధాయః దీర్ఘః. తినేన దీర్ఘే యు హావ్ వేధాస్
రుత్రే విసర్గే కృతే వేధాః. సో ప్రత్యయ డిలీటెడ్ బై హల్వ్యాభ్యః.
సో వేధాః వేధసౌ వేధసః. హే వేధః సంబుద్ధౌ దీర్ఘః న భవతి. హే వేధః హే వేధసౌ హే వేధసః. వేధసా వేధోభ్యాం వేధోభిః.
లైక్ వి సా ఇన్ ఉషణోభ్యాం హ వేధస్ భ్యాం సకారస్య రుత్వం రోహు ఉత్వం గుణే చ కృతే వేధోభ్యాం ఇతి రూపం. సో నెక్స్ట్ యు హావ్ అనదర్ పుల్లింగ కాల్డ్ సువస్.
సుపూర్వాద్ వస ఆచ్ఛాదనే ధాతోః కృత్ ప్రత్యయః.
ధాతు వస్ ఇస్ గెట్స్ కృత్ ప్రత్యయ.
అధాతోః ఇత్యుక్తే నదీర్ఘః.
అత్వసంతస్య చ అధాతోః ఇత్యత్ర అధాతోః అసంతస్య ఇతి ఉచ్యతే.
సో ఇట్ షుడ్ ఎండ్ ఇన్ అస్ బట్ దట్ అస్ షుడ్ నాట్ బిలాంగ్ టు ద ధాతు. ఇట్ ఇస్ వై ఇన్ వేధస్ వి సా దట్ ఇట్ బిలాంగ్స్ టు ద ప్రత్యయ.
అత్ర తు వస్ ఇత్యత్ర ధాతోః ఏవ అస్.
అతః అత్ర దీర్ఘః న భవతి.
సుష్ఠు వస్తే ఇత్యర్థే సువః సువసౌ సువసః.
సువాః ఇతి దీర్ఘః న శ్రూయతే. సో ఇఫ్ ద అస్ బిలాంగ్స్ టు ధాతు దేర్ ఇస్ నో దీర్ఘ బై అత్ సంతస్య ధాతుః.
ఇఫ్ ఇట్ బిలాంగ్స్ టు సంథింగ్ ప్రత్యయ తదా దీర్ఘః భవతి.
పిండం గ్రసతే గ్రస్ ధాతు తథైవ గ్లసు ధాతు. గ్రసు గ్లసు అదనే.
సో యూ హావ్
two dhatus, one with repha and the other with lakara. So in either case you have asu, but again as the asu belongs to the dhatu, there is no dirgha, pindagraha, pindadlaha. Pindagrasu su, su pratyasya lopaha, pratyarigeya sakaraha, tasya rutva visargo. Pindagraha, pindadlaha. The last shabda in Ananta Pullinga, end of Sakaranta Pullinga, Adas Shabda. So, very important pronoun. We already seen half the prakriya in Adadrece. Arasothe Dadudomaha, Iti Pramukham Sutra, we have studied it already. But looking at the plain Adas Shabda now, Adas Suprateha. Adasa au sulopascha iti sutram. Adasaha au sulopaha cha. Tadosasavanantayohu ityataha sau iti anuvartate. Korthaha adasaha aukaraha antadeshaha syat sau pare sulopascha. So followed by supratyaya, adas, that is the sakara of adas, gets au as the adesha. And the supratyaya itself gets deleted. Tadosya savanante yoho iti dasya saha. Adas ityasma supratyaya. Adasau sulopascha ityanena sakarasya sthane aukara adesha. And sulopascha. So it is general tradition that even when a single sutra is giving two karyas, ekena sutrena karyadvaye uktepi, ekaika meva karyam kriyate. In each step we show a single karya. So first, you do aukara desha and then you remove supratyaya. You have ada, au, vridhireti ityanena, vridhau, adau iti jatam. Tadosasa vanantyayohu, tyadadinam, anantyayohu, takara dakara yohu, sakara desha bhavati. So if there is a takara or dakara, which is not at the end, in any tyadadis, they are replaced by sa. Yadu tadu yadu etad idam adas ekadvi. So adas belongs to tyadadis. So dakarasya sthane sakara adeshe asau iti rupam. Autva pratishedha sakachkasya va vaktavyaha sad uttvamcha. Sakachkasya, when adas is associated with akach. Avyaya sarvanamnam akach praptehe ittanena. All sarvanamas will get akach in smartha. So you have adas, you will also have adakas as the pratipadika. Now, if it is adakas, sakachkasya, autva pratishedaha va vaktavyaha. Optionally, this autva is prevented. So when you have adakas, it will directly be adakas and there is no autva. Sad uttvamcha. Sakarat parasya parahayaha varnaha. Tasya uttvam api vidhiyate. Pratishedha sanniyoga shishtam uttvam tadabhave na pravartate. There are two karyas he is telling there. One is autva pratishedha and the other is uttva for the letter which follows sakara. Pratishedha sanniyoga shishtam. This uttva is being mandated in association with the pratishedha. Pratishedha sanniyoga shishtam. So, since it is being mandated along with the pratishedha, tadabhave na pravartate. Autva pratishedhe sati sakarad uttvam bhavati. Autva pratishedhasya abhave uttvam na bhavati. So, both of them are being told jointly. So, in one case, there is autva pratishedha and sad uttvam, sakarad parasya ukara adesha. In the other case, we just have autvam and supratyasya lopaha. Asakau, when there is autva, adakas ityasti, supratyaha, sakarasya autve krate, adaka au, supratyaha lupyate, adakau, tadosasavanantyayohu ityanena, sakare krate, asakau. So like you have asau, there is one form which is asakau. In the other case, there is no autva. There is no autva. You have adakas su. इदानीं किं भवति तदादीनामः सो वेन् देर् इस् नो औत्व देर् इस् द जनरल् थिङ्ग् विच् इस् हेपनिङ्ग् विच् इस् तदादीनामः सो यु हेव् अदक एण्ड् सुप्रत्यय यु गेट् ऋत्वविसर्ग यु हेव् अदकः तदोत्सस्सावनन्त्ययोः इत्यनेन दकारस्य स्थाने सकारे यु हेव् असकः साद् उत्वं सकारात् परस्य उकारादेशः सो यु हेव् स अस इत्यस्ति सो द अ बिकम्स् उ सो यु हेव् असुकः सो इन् वन् केस् देर् इस् औत्वा एण्ड् सुप्रत्ययलोप तदोत्सस्सावनन्त्ययोः इत्यनेन सत्त्वं सो द फार्म् इस् असकौ तदभावे असुकः इति रूपं सो दिस् इस् ओन्ली इन् केस् आफ् अकच् when it has akach otherwise the form is asau au pratyah vivacane tiradyatvam pararupam vruddhih adasosehe iti matvotve so he gives the prakriya in two sentences so by now you should be good enough to derive the prakriya from one word clues of dictionary so what is happening he is deriving the form amu अदस् इत्यस्मात् औ प्रत्ययः प्रथमविभक्तौ द्विवचने तदादीनामः इत्यनेन अन्त्यस्य अकारादेशः अद औ तदाद्यत्वं पररूपम् अतो गुणे अपदान्तादकारात् गुणे परतः पररूपमेकादेश स्यात् इत्यनेन पररूपे यु हाव् अद औ वृद्धिः वृद्धिरेसि इत्यनेन वृद्धौ अदौ इदानीम् अदसो सेर् दादुदो मः अदसः असेः सो वेन् देर् इस् नो सकार दिस् अदत् शब्द दात् उ दकारात् परस्य उकारादेशः दः मः दकारस्य स्थाने मकारादेशः सो द इस् रिप्लेस् बै म एण्ड् औ इस् रिप्लेस् बै उ दीर्घ उकार सो रिकलेक्ट् दिस् सूत्र इस् एन् एक्साम्पल् आफ् प्रमाणसादृश्यम् इफ् द वर्ण फालोयिङ्ग् dakara is hraswa, we get hraswa ukara as the adesha. Yadi dirkha, tarhi dirkha adesha kriyate. So you have amu. Asau amu. Adas jas pratyaya. So the same steps. Kirarina maha iti atvam. Ato gune iti pararupam. You have ada as. Jasa shi ittenena. Since this is a sarvanama, adantat sarvanamna parasya jasaha shi sya. So whenever it is akaranta, the jas is replaced by shi. So we have ada, e, ad gunaha, ityanena, gune, ade, hijata. So now again, you have to apply adasose dadudomaha. You will again end up with ammu. But there is another sutra, eta eed bahuvachane. Etaha eed bahuvachane. अदसोसेर् दादुदोमः इत्यतः अदसः दात् दहमः इति अनुवर्तते अदसः दात् परस्य एकः ईत् स्यात् इफ् दकार इस् फालोड् बै एकार इन् बहुवचन बहुवचने बह्वर्थोक्तौ तदा एकारस्य स्थाने ईकारः आदेशः भवति इन्स्टेड् आफ् उ देर् इस् ई अस् द आदेश दस्यतमः And the adakara is replaced by makara. So you have ami, you had ade, dakaraha, dakarat paratvena ekaraha, bahuvachanarthakaha. So you have the a being replaced by e, you have ami. Asau, amu, ami. Purvata siddham iti vibhakti karyam prak, ashtyad ipamatve. It is everywhere in all vibhaktis. First you do whatever karya is applicable to that vibhakti. And only at the end, we do mutva. That is utva and matva. Why? Puratra siddham. Adasosaya dadado maha iti mutva sutram asiddha kande vartate. It is 8 to 80. So since mutva is asiddha, we first complete whatever is the karya, vibhakti karya, and then go on to mutva. For example, ada am. Siddharina maha. Pararupam is common to all. We start with Ada and Am. Dvitiya ekavachane. Amipurvaha ityanena purvarupe Adam iti jatam. Now, adasosaya dadudomaha iti mutve Amu. Here, dakaratparaha hrasvakaraha
अतः ह्रस्वाकार एव आदेशः अमुम् अमु इस द सेम शस् अद शस् प्रथमयोः पूर्वसवर्णः जस्ट लाइक यू हैव एनी अकारांत सर्वनाम यू विल हैव ऑल कार्यस् प्रथमयोः पूर्वसवर्णः इत्यनेन पूर्वसवर्ण दीर्घे अदास् तस्मात् शसो नस्पुंसि इति मत्वे सकारस्य स्थाने नकारः सो यू हैव अदान् इदानीं रसोसेर्दादुदोमः इति मुत्वे कृते अमून् अमु अमु अमून् मुत्वे कृते घिसंज्ञायां नाभाः दिस् इस् सेयिङ्ग् अद इत्यस्मात् तृतीये एकवचने टा प्रत्ययः यू हैव् अद आ देर् इस् नो कार्य विच् यू केन् डू हियर् He says, first you do mutva. That is, adasosev dadudo maha iti mutvam kriyate. You have amu, a. Now, since it is ukaranta, shesho ghyasakhi. Ittyanena ikaranta naam ukaranta naam se ghi iti samnya vidhiyate. Go back to guru shabda or hari shabda. Ikaranta naam ukaranta naam se ghi samnya vidhiyate. Ghi samnyayam satyam amo nastriyam ittyanena ta ityasya sthane na iti adeshaha bhavati. So you have amuna. Now a question, why are we doing, how are we doing this? Because first thing, ada a iti sthite. Because ada so sayar dadudo maha is asiddha, you should actually do ramena iti vata. Tanasya saminamsyaha iti inadesha sya. Why are we doing ada so sayar dadudo maha first? And then even when we do it, how can we have ghisamya? Ghisamya sapara saptadhyaya masti. Mutvasya asiddhatvat. नाभावः कथं भवति इति प्रश्नः सूत्रमस्ति न मु ने त्रीणि पदानि न मु ने पूर्वत्रासिद्धम् इत्यतः असिद्धम् इति अनुवर्तते मु असिद्धं न मुत्वम् असिद्धं न भवति कदा ने नाम नाभावे नाभावे कर्तव्ये कृते च मुभावः न असिद्धः स्यात् इति सूत्रम् सो व्हेनेवर यू इंटेंड टू डू नाभाव Or after having done nabhava, there is no asiddhatva for mutva, is what it says. So that is why, when you go back, when you are trying to do nabhava, I mean, if you do mutva, you will get nabhava. So nabhave kattavye mutvam na asiddham. There is no asiddhatva, we do mutva first. And then, since mutva is not asiddha, you have ghisamya, ghisamyayam satyam nabhavaha kriyate. नाभावे कृते अपि मुत्वस्य असिद्धत्वं नास्ति इवन् आफ्टर् डूयिङ्ग् नाभाव द मुत्व इस् नाट् असिद्ध इफ् मुत्व वर् असिद्ध देन् यू हेव् अद देर् अद न इति स्थिते सुपि च इत्यनेन दीर्घः प्राप्नोति यु शुड् हेव् अ दीर्घ सो टु प्रिवेण्ट् दट् द सूत्र सेस् नाभावे कर्तव्ये कृते च इन् केस् आफ् नाभाव वेन् यु आर् ट्रैङ्ग् टु डू नाभाव और् आफ्टर् हेविङ्ग् डन् नाभाव मुभावः रसोसेर्दादुदोमः इति विहितं मुत्वम् असिद्धं न भवति देर् इस् नो असिद्धत्व दट् इस् वै यु हाव् द फार्म् अमुना अदभ्याम् सुपि च इत्यनेन दीर्घः लैक् वि हाव् रामाभ्यां वि हाव् अदाभ्यां मुत्वे कृते अमूभ्याम् अमुना अमूभ्याम् अदभिः बहुवचने झल्येत् इति सूत्रेण एत्वं भवति एत्वे कृते अदेभिः ऋत्वे विसर्गे अदेभिः इति रूपम् एत ईद् बहुवचने इत्यनेन एकारः नव यु हाव् तकार फालोड् बै एकार इन् बहुवचन सो इट् इस् रिप्लेस्ड् बै ईकार इन्स्टेड् आफ् उकार सो यु हाव् अमीभिः अमुना अमूभ्याम् अमीभिः क्वेश्चन् हियर् अदाभिस् यु हाव् रामाभिस् वाट् डु वि डु वि डु अतोभिस् ऐस् वि रिप्लेस् भिस् वित् ऐस् सो वै आर् वि नाट् डूयिङ्ग् दट् हियर् अदाभिस् इति स्थिते किमर्थम् ऐसादेशः न कृतः Anybody? Gaya we not applying atobhika is.
There's nothing tricky about it. There's a sutra which prevents aitadesha. So you can maybe go up and look it up. We have already studied it. Anyway, amibhihi amuna amubhyam amibhihi. Tataha nye pratyaha chatuthyeka vakshane adha e sarvanamna smi. Yeah, nedam adaso rakkoho. Idam adaso. So for idam and adas, you will not replace this with ais. So atobhisais has a nishedha sutra, nedam adaso rakkoho. So the ais adesha is prevented. So adha e sarvanamna smai ityanena nye pratyayasya smaya adeshaha adha smai idani mutve krute amusmai adesha pratyayohu ityanena shatve amushmai amushmai amubhyam amibhyaha the forms are the same. Similarly you have amushmat nasi ityasya nasi nyoha smat smino ityanena smada adeshaha muttvam shatvam amushmat amubhyam amibhyaha amushya amu ada nas ityasthite tanasingasaminasyaha ityanena syadeshaha adasya mutve amusya adeshapateyohu ityanena shatve amushya ada os osicha ityanena etvam ade os eshoyavayavaha ityanena ayadeshaha. So you have adayohu mutve krute amuyohu amushya amuyohu ada am ami sarvanamnaha sutri. Since it is a sarvanama there is sudagama. So you have ada sam bahuvachane chalyet ityanena etve ade sam eta eet bahuvachane. So as soon as you have bahuvachana and you have ekara, you apply eetva. So you have amisam shatve krate amisham amushya amuyohu amisham amushmin amuyohu amishu amushmin singyohu smatsunam it is minnadeshaha amuyohu is already amishu ada su ityasti bahuvachane chalyet ityetve ade su iti bhavati nitvam matvam itvam cha ami su adesha pratyayohu ityanena shatve amishu iti rupam amushmin amuyohu amishu. That is the end of halanta pulinga prakarana. Finally a pretty long prakarana done. So the next would be halanta strilinga prakarana. There is a general belief that you should not end at the end of a prakarana. So I'll just look at what is there at the beginning of strilinga prakarana. Start with again hakarantas. Just like if you remember we started kodhaha. Lih shabdena arabdham. So in all halantas he goes by hayavaratlan, the same order. So we start with hakarantas trilingas. Upanah shabdaha. Upanah ityasya padaraksha ityarthaha. So hakarantas trilingaha upanah shabdaha. Nahodhaha. It is utramasti. Nahohasya dhahasyat jhalipadantecha. So when followed by jhal or at the end of a pada, the hakara is replaced by dhaka. So you have upanas isyasmat supratyaha. Halyadina sulopaha. Hakara sthane dhakara. Since this is padanta, you replace ha with dha. So you have upanadh. Jhalam jashonte ityanena jashtre upanadh. Vavasane iti chatre upanadh. 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 Upanaho upanaha ityadi rupani. So let us stop here. Enakshara tamam nayam adhigamya maheshwarat krishnam vyakaranam gopkan tasmay panina ye namaha
वाक्यकारं वर रुचिं हर्षपागं पतञ्जलिं पाणिनिं सूत्रकारं च प्रणतोऽस्मि मुनित्रयम् मुनित्रयं नमस्कृत्य तदुक्तीश्वरि भाग्यश वैयाकरणसिद्धान्तकौमुदीयं विरच्यते।